सहस्राक्षेण शतशारदेन सतायुषा हविषाहर्षमेनम् शतं यथेमं शरदो न यातिन्द्रो विश्वस्य दुरितस्य पारम्।
अथ कृष्णयजुर्वेदः ॐ अपवा एतस्माच्छ्रीराष्ट्रं क्रामति योऽश्वमेधेन यजते।
अथ चतुर्वेदोक्त आसीद वचनम् देवदेवोत्तमदेवता सार्वभौमा अखिलाण्डकोटि ब्रह्माण्डनायक ऋषिगणवन्द्य सच्चिदानन्दात्मन् ऋग्वेदप्रिय ऋग्वेदसेवाम्